तर्हि अद्यतनविषयः अस्ति स्नेहस्य प्रत्यक्षग्राह्यत्वम् इति. करपत्रं सर्वेषां पुरतः स्यात् यद् मया प्रेषितमासीत्. तर्हि पृष्ठभूमिकारूपेण विद्याधरीग्रन्थे एकः परिच्छेदः अस्ति यस्मिन् ग्रन्थकारेण उच्यते यत् एवं विधोपि स्नेहः चक्षुरादिभिः न ज्ञातुं शक्यः. इत्युक्ते यः स्नेहः जलमात्रवृत्तिः, यः स्नेहः पिण्डीभावस्य कारणमस्ति, सः स्नेहः इति गुणः चक्षुरादिभिः इन्द्रियैः अपि च ग्राणरसन इत्यादिभिः, श्रोत्रम् इत्यादिभिः इन्द्रियैः अपि न ज्ञातुं शक्यते. तर्हि अनुमानेन पिण्डीभावरूपकार्यं दृष्ट्वा अनुमानेन सिद्ध्यति स्नेहनामकगुणः इति तत्र ग्रन्थकारः वदति. तर्हि स्नेहः इति प्रतिनियतग्राह्यगुणः अपि नास्ति, सङ्ख्याधिवत् द्वीन्द्रियग्राह्यः अपि नास्ति इति तस्य मतमस्ति, ग्रन्थकारस्य मतमस्ति. एतदुक्त्वा ग्रन्थकारः अपरमेकं विचारम् उपस्थापयति अत्र यत् अस्तु प्राचीनैः स्वीकृतः स्नेहः किन्तु तस्य चक्षुरादिना अग्रहणात् नवीनानाम् अस्वीकाराच्च स्नेहः जललक्षणे न निवेशितः इति अस्ति. तर्हि अस्य विषये एव करपत्रमस्ति तस्य स्पष्टीकरणार्थम्. एवं कुर्मः, करपत्रे शुकवनमहोदय तत्र पश्यति वा सङ्ख्यापरिमाणं पृथक्त्वम् इति परिच्छेदः, तस्मात् आरभ्य किञ्चित् पठतु.
अस्तु. सङ्ख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः, परत्वम्, अपरत्वम् इति यावत् तदा द्रवत्वं, स्नेहः च एते गुणाः द्वीन्द्रियग्राह्याः. एते गृह्यन्ते चक्षुषा, त्वचा च. दिनकरी इति टीकायां च दत्तमस्ति यत् सङ्ख्यादि परत्वान्तो द्रवत्वं, स्नेह एव च इति मूले स्नेहपदं वेगस्यापि उपलक्षणम् उपलक्षकम्. स्नेहशब्देन वेगोऽपि उपलक्षणीयः. तर्हि अनेन स्पष्टं भवति यत् प्रमुखग्रन्थेषु स्नेहः इति गुणः द्वीन्द्रियग्राह्यः. प्राचीनग्रन्थेषु, नवीनग्रन्थेषु च अयमेव सिद्धान्तः. अतः विद्याधर्यां स्नेहस्य अतीन्द्रियत्वं ग्रन्थकारस्य स्वकीयमतम् इति भाति. नाम अत्र विद्याधर्यां मतभेदः प्रकटः अस्ति इति. भगिनी, कुतः ध्वनिः आगच्छति?
अधुनापि अस्ति वा?
इदानीं सम्यक् अस्ति.
अस्तु.
सङ्ख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः, परत्वम्, अपरत्वम् इति सप्तगुणाः, अपि च द्रवत्वं, स्नेहः, एते नवगुणाः द्वीन्द्रियग्राह्याः. द्वीन्द्रियग्राह्याः इत्युक्ते चक्षुषा अपि ग्रहीतुं शक्यते, त्वचा अपि ते गुणाः ज्ञातुं शक्यते इति. दिनकरी इति प्रसिद्धटीका अस्ति. कारिकावळी इति ग्रन्थस्य टीका अस्ति तत्. तत्रापि तत्र दत्तमस्ति एव एवं सङ्ख्यादि अपरत्वान्तम् इत्युक्ते तत्र सप्तगुणाः अन्तर्भूताः, अपि च द्रवत्वं, स्नेहः इति. ते सर्वे द्वीन्द्रियग्राह्यः, चक्षुषा अपि त्वचा च ग्रहीतुं शक्यते इति. तत्र स्नेहे वेगस्यापि उपलक्षकम् इत्युक्ते वेग आख्यसंस्कारः अपि द्वीन्द्रियग्राह्यम् इति स्वीकार्यम् इति दत्तमस्ति. यद्यपि वेगः इति तत्र साक्षात् न दत्तं, तथापि स्नेहम् इति, स्नेहः इति गुणः वेगस्यापि उपलक्षयति इति कृत्वा वेग आख्यसंस्कारः अपि स्वीकार्यं, द्वीन्द्रियग्राह्यम् इति स्वीकार्यम् इति. अनेन किं स्पष्टं भवति इत्युक्ते प्रमुखग्रन्थेषु स्नेहः इति गुणः द्वीन्द्रियग्राह्यः इति स्पष्टं भवति. तत्र प्राचीनानाम् अपि च नवीनां मध्ये मतभेदः नास्ति. प्राचीनामपि स्वीकुर्वन्ति नवीनामपि स्वीकुर्वन्ति. किं स्वीकुर्वन्ति इत्युक्ते स्नेहः इति गुणः द्वीन्द्रियग्राह्यः इति स्पष्टम् अस्ति. किन्तु विद्याधर्यां ग्रन्थकारेण किमुक्तम् इत्युक्ते स्नेहः पिण्डीभावं दृष्ट्वा स्नेहाख्यगुणः अस्ति इति अस्माभिः अनुमीयते इति. तेन किं भवति इत्युक्ते तत् अनुमीयते इति मतं ग्रन्थकारस्य स्वकीयमतं, न तु प्राचीनानाम् अपि च नवीनानाम् इति.
हा हा, समीचीनमस्ति. तर्हि सः एव विषयः अद्य चर्चनीयः अस्ति, स्नेहः. अस्तु, भवान् अग्रिमपङ्क्तिद्वयमपि पठतु महोदय. तत्र सिद्धान्ति इत्यस्य मतं किं, प्रतिपक्षी इत्यस्य मतं किम् इति.
अस्तु, सिद्धान्ति सामान्यन्यायशास्त्रे स्नेहः चक्षुषा दृश्यते, त्वचा च स्पृश्यते, अयं स्नेहश्च जलमात्रवृत्तिः इति सिद्धान्ति वदति. सिद्धान्ति इदानीं कः इत्युक्ते प्राचीनाः प्राचीनः वा भवतु, नवीननैयायिका वा भवतु, तयोः मदः मतम् एकमेव. किम् इत्युक्ते स्नेहः चक्षुषा दृश्यते, द्वीन्द्रियग्राह्यः, चक्षुषा अपि च त्वचा गृह्यते, अपि च स्नेहस्य जलमात्रवृत्तित्वम् अस्ति. इत्युक्ते जलेन एव जले एव तद् भवितुम् अर्हति इति. इदानीं प्रतिपक्षी वदति अत्र स्वाभाविकप्रश्नः उदेति यत् जले किं दृश्यते यत् स्नेहनामकं स्यात्. इत्युक्ते यदि रूपं वा तादृशगुणाः वा चेत् तत् तत् इन्द्रियेण ग्रहीतुं शक्यते. किन्तु स्नेहः इति गुणं जले वर्तते इति वक्तुं जले किमस्ति तेन वयं ज्ञातुं शक्नुमः स्नेहाख्यगुणः जले अस्ति इति पूर्वपक्षी पृच्छति.
हा हा, समीचीनम्. अस्तु, तर्हि सिद्धान्ती कः प्रतिपक्षी कः इति मनसि भवेत्. अग्रे गत्वा गत्वा किञ्चित् कदाचित् विस्मरणं भवति. अस्तु, सिद्धान्ती किं, तस्य मूले मतं किम् आसीत्, प्रतिपक्षी किम् उक्तवान् मूले इति. तर्हि एवं मनसि स्यात् यत् सिद्धान्ती इति सः अस्ति यः वदति यत् स्नेहः द्वीन्द्रियग्राह्यः, चक्षुषा दृश्यते, त्वचा च स्पृश्यते इति. तर्हि प्रतिपक्षी अधुना पृच्छन् अस्ति कथं वदति भवान् यद् चक्षुषा दृश्यते अथवा त्वचा स्पृश्यते, किञ्चित् विवरणं ददातु इति प्रतिपक्षी पृच्छन् अस्ति.
प्रायः प्रतिपक्षी ग्रन्थकारः इति अपि स्वीकर्तुं शक्यते.
आमां, यः कोऽपि येन केनचिदपि तद् मतं द्वीन्द्रियग्राह्यत्वम् इति न स्वीक्रियते सः एव प्रतिपक्षी, प्रायः ग्रन्थकारः अपि स्यात्.
भगिनी भगिनी, पूर्वमपि यथा संयोगविभाग पृथक्तस्य सन्दर्भे अपि तथा आसीत् प्रतिपक्षीसिद्धान्तेन. सिद्धान्तिनः तु प्राचीनैः तत् अस्माभिः स्वीकृत्य प्रतिपक्षिणी नवीननायिकाः आसन्.
हा, तस्मिन् सन्दर्भे तथा स्यात् महोदय. किन्तु सिद्धान्ति इत्युक्ते किं, यस्य सिद्धान्तः सः सिद्धान्ति, नीप्रत्ययः खलु. तर्हि अत्र सिद्धान्तः कः प्रथमतया?
द्विन्द्रियग्राह्याः तेषां.
हा हा, सः एव सिद्धान्तः. तं सिद्धान्तं यः कोऽपि प्रतिपादयति सः एव सिद्धान्ति खलु. अत्र तु उभाभ्यां मतं तथैव अस्ति, नव्यानाम् अपि च प्राचीनानां तथैव अस्ति. उभयोः मतं किम् अस्ति राजेन्द्रमहोदय?
अहं चिन्तितवान् नवीनानां तस्य तादृशी न अङ्गीकुर्वन्ति. अत्र यथा विद्याधर्याम् अस्ति, अत एव न्यायबोधनीग्रन्थे.
अत्र शुकवनमहोदयेन पठितं खलु, तर्हि तत्र पश्यति वा. तर्हि अनेन स्पष्टं भवति यत् प्रमुखग्रन्थेषु स्नेहः इति गुणः द्वीन्द्रियग्राह्याः इति पश्यति वा? ततः अग्रे किम् अस्ति, प्राचीनग्रन्थेषु नवीनग्रन्थेषु च अयमेव सिद्धान्तः इत्युक्ते किम्?
प्राचीनग्रन्थेषु नवीनग्रन्थेषु च अयमेव सिद्धान्तः
इत्युक्ते प्राचीनानां मतमपि द्वीन्द्रियग्राह्यत्वं, नवीनानां मतमपि द्वीन्द्रियग्राह्यत्वम् इति एव सिद्धान्तः अत्र. अस्तु, तर्हि उभयोः यः सिद्धान्तः अस्ति तं सिद्धान्तम् अत्र प्रतिपादयन्ति ते. सिद्धान्तः कः? द्वीन्द्रियग्राह्यत्वम्. अतः सिद्धान्ती कः इति प्रश्ने कृते प्राचीनः अपि च नव्यः. तद्विरुद्धं, तत् सिद्धान्तस्य विरुद्धं यः कोऽपि किमपि वदति सः प्रतिपक्षी. अत्र प्रतिपक्षी कः इत्युक्ते सः यः वदति यत् अस्तु, जले कथं दृश्यते स्नेहः, किमस्ति जले येन वयं ज्ञातुं शक्नुमः यद् स्नेहः अस्ति इति यः कोऽपि पृच्छति सः प्रतिपक्षी.
विद्याधर्यां कथं किञ्चित् भिन्नरीत्या अस्ति वा, यत् अत एव न्यायबोधिनीग्रन्थे नव्यम् उपन्यासे स्नेहस्य पिण्डीभावं प्रति कारणत्वं निराकृत्य तत्
मम अपि एकः प्रश्नः अस्ति किन्तु विस्मृतवती प्रष्टुं. न्यायबोधिनीग्रन्थः तु नव्यानां मतं नव्यानाम् इति भाति खलु, तर्हि न्यायबोधिनीग्रन्थे नव्यानाम् अस्ति, तर्हि ते अपि निराकुर्वन्ति वा इति?
आम्, अत्र तु तथैव लिखितमस्ति मम चिन्ता.
परन्तु अत्र एकम् अपि एतदपि अस्ति, न्यायबोधिनीग्रन्थे नव्यमतोपन्यासे किम् अस्ति, किं प्रतिपादितं? स्नेहस्य पिण्डीभावं प्रति कारणत्वं निराकृतं, तावदेव उक्तं खलु. परन्तु न्यायबोधिनीग्रन्थे प्रत्यक्षग्राह्यत्वम् इत्यस्य विषये किमपि न उक्तम् इति भाति मम. अन्ये किं चिन्तयन्ति?
कुत्र अस्ति तद् विषयं भगिनि?
विद्याधरी पृष्ठे 116 इत्यस्मिन् पृष्ठे अस्ति खलु, न्यायबोधिनीग्रन्थे नव्यमतोपन्यासे स्नेहस्य पिण्डीभावं प्रति कारणत्वं निराकृत्य स्नेहस्वीकारः एव कटाक्षितः. अत्रापि एवम् उक्तं यत् पिण्डीभावं प्रति कारणत्वं निराकृतम् इति, किन्तु करपत्रस्य विषयः अस्ति स्नेहस्य द्वीन्द्रियग्राह्यत्वं, तस्मिन् विचारे तु उभयोः अङ्गीकारः वर्तते इति चिन्तयामि, नव्यानाम् अपि च प्राचीनानाम्. अस्तु,
संशयमस्ति मम मनसि, यथा तत्र लिखितमस्ति प्राचीनग्रन्थेषु नवीनग्रन्थेषु, तत्र नवीनग्रन्थेषु अपि प्राचीनमतं जनाः मनसि अस्ति, तत्र ग्रन्थः नवीना अस्ति परन्तु मतं तु प्राचीनैः अनुसरमस्ति.
परन्तु महोदय, पुस्तके यद् दत्तमस्ति तद् देवदत्तमहोदयस्य मतमपि स्यात् इति एकः विचारः. करपत्रे यद् महोदयेन दत्तं तत्तु प्राचीनग्रन्थनव्यग्रन्थानुगुणं स्यात्, किन्तु पुस्तके यदस्ति तत्तु देवदत्तमहोदयस्य स्वकीयं मतं, पुस्तके यद् किमपि भवतु तद्. अस्तु अस्तु, केचन नूतनाः सन्ति. हा, एकनिमिष भगिनि, के सन्ति नूतनतया?
हा,
पुष्पा भगिनी, अनन्तरं.
नमस्ते भगिनि, अजितः.
अजित महोदय, अन्य कोऽपि अस्ति वा? अस्तु, तर्हि जयन्ति भगिनि.
हा, इत्युक्ते भवती उक्तवती तस्मिन् चिन्तने एव जनस्य लक्षणे स्नेहः न निर्देशितः इत्यपि ग्रन्थकारस्य मतमेव, देवदत्तमहोदयस्य मतम् इति मन्ये. यद्यपि सः वदति यत् तस्य स्नेहस्य ग्राहकत्वम् न भवति यद्यपि सः वदति तादृशं, परन्तु तस्मात् एव स्नेहः लक्षणेन निवेशितः इति तर्कः वा किं कन्क्लूजन् वा, तत्तु तस्य मतमेव खलु
प्रायः स्यात् भगिनि, यतोहि सः किं वदति प्राचीनाः स्वीकुर्वन्ति चक्षुरादिना अग्रहणम् इति अपि सः वदति किन्तु तथा नास्ति इति करपत्रस्य विचारः प्राचीना.
तर्हि वस्तुतः किमर्थं न निवेशितः? अस्माभिः तु इदानीं ज्ञातं यत् लक्षणवाक्ये न अस्ति इति.
हा हा, प्रायः करपत्रे अग्रे आगच्छति. ममापि प्रश्नः आसीत् यत् हा स्नेहः प्रथमतया सः वदति यत् स्नेहः अनुमानेन सिध्यति इति खलु. तर्हि अनुमानेन सिध्यति इति कृत्वा न निवेशितः अस्ति वा इति एकः प्रश्नः आसीत्. अस्य विषये इतोपि किञ्चित् वक्तव्यम् अस्ति इति महोदयेन उक्तम्.
तथापि भगिनि, अहं गतसप्ताहे उक्तवान् ये ये लक्षणानि सन्ति तत्सर्वं लक्षणे वक्तुं वक्तव्यम् इति किमपि नियमः नास्ति किल?
तदपि नास्ति इति सत्यमेव, परन्तु विशेषतया किमर्थं शीतस्पर्शवत्यः इति चितवन्तः ते इति अपि प्रश्नः भवितुम् अर्हति खलु.
आम्, किन्तु अहं मम चिन्तनम् एवमस्ति, ग्रन्थकारस्य मतं तु स्नेहाख्यगुणः अनुमानेन एव ज्ञातुं शक्यते, न तु द्विन्द्रियग्राह्यः इति तस्य मतं. तत् प्रायः सः अपि पठितवान् अस्ति कारिकावली दिनकरी तत्सर्वं, किन्तु तत् पठित्वा अपि तत् सः तस्य स्वकीयमतम् अत्र प्रतिपादयति. तत्र आधारमपि दातव्यं किल, केवलं तादृशं वदति चेत् कोऽपि न स्वीकुर्वन्ति. अतः अत्र विद्याधिर्यां वाक्यद्वयं तेन दत्तमस्ति, एकं तु न्यायबोधिनी ग्रन्थे इति तद्ग्रन्थं स्वीकृत्य पिण्डीभावं प्रति कारणत्वं निराकृतम् इति एकं वाक्यम् उक्तम्, अपि च शीतस्पर्श एव निर्दिष्टः न तु त्वगिन्द्रियग्राह्यः सर्वजनसाक्षिकः शीतस्पर्शः एव निर्दिष्टः इति अपि द्वितीयवाक्यं दत्तं. तत् किमर्थम् इत्युक्ते स्वकीयमतस्य आधारभूतेन एत वाक्यद्वयं तेन दत्तम् इति अहं चिन्तयामि
प्रायः.
परन्तु प्रश्नः तत् नास्ति महोदय, परन्तु जयन्ती भगिन्याः प्रश्नः अस्ति किमर्थं लक्षणवाक्ये स्नेहस्य उल्लेखः नास्ति इति खलु.
स्नेहस्य उल्लेखः नास्ति इति, तर्हि अस्य हा भगिनि सत्यमेव, अस्य विषये एवं कुर्मः करपत्रे किञ्चित् अग्रे सरेम, तत्र स्पष्टता नास्ति एतावता किमर्थं तथा कृतवन्तः इति.
एकमेव वाक्यं वक्तुम् इच्छामि भगिनि, तस्य प्रश्नस्य उत्तरं मम उत्तरम् एवम् अस्ति, लक्षणे सर्वं वक्तव्यम् इति किमपि नियमः नास्ति इति.
अस्तु,
विशिष्टलक्षणम् अस्ति चेत् अपि तु तेन दोषः न भवति चेत् अवश्यं
वक्तुं शक्यते.
वक्तुं शक्यते किन्तु अवश्यं वक्तव्यम् इति किमपि नियमः नास्ति. शीतस्पर्शः इति विशिष्ट गुणमेव किल
जलस्य.
परन्तु महोदय अन्यत् अपि अस्ति, अत्र यथा स्नेहः अस्ति तत्तु द्विन्द्रियग्राह्यः अस्ति, शौचः अपि तत् ग्राह्यते, तत् कारणात् तत् असाधारण लक्षणं न भवति.
तदपि सत्यं महोदय.
राजेन्द्रमहोदय वदति, तदपि एकनिमिषः, कोऽपि ध्वनिः आगच्छन्नस्ति, कृपया म्यूट् कुर्वन्तु. हा, राजेन्द्रमहोदय यद्वदति तदपि सत्यम् इति भाति. यदि प्राचीनाः नव्याः उभयोः मतानुगुणं द्विन्द्रियग्राह्यः इति अस्ति, परन्तु शीतस्पर्शः तथा नास्ति खलु इति अपि स्यात्. लक्षणवाक्ये निवेशार्थं के के निकषाः सन्ति इति एतावत्पर्यन्तं स्पष्टता नास्ति अस्माकम्. इति तु अस्ति. अस्तु, किञ्चित् अग्रे गच्छेम वा इतः? अस्तु, जयन्ती भगिनी अग्रे. भगिनी
सिद्धान्ति अस्मात् खलु. सिद्धान्ति वदति यथा घटे घटत्वं दृश्यते, घटत्वम् अस्माभिः अनुभूयते. यदि घटे घटत्वं न गृह्यते तर्हि घटान्तरं दृष्टे सति कथं वा ज्ञायते अयं घटः इति. अनेन प्रमाणम् अस्ति यत् घटत्वम् इन्द्रियैः गृह्यते. तथैव च द्रवत्वं, द्रवत्वं चक्षुषा दृश्यते. किञ्चन जलं न स्रवति चेदपि तस्य दर्शनेन ज्ञायते यत् इदं जलं द्रवम्. सम्यक् परीक्षणं भवति पशूनां द्वारा, यतोहि पशुः परिशीलनशाली नास्ति. पशुः किमपि जानाति चेत् आधिक्येन इन्द्रियैः जानाति, न तु अनुमानेन. कुक्कुरः सरोवरं दृष्ट्वा जानाति यत् स्वस्य पादं सरोवरे स्थितस्य जलस्य उपरि स्थापयितुं न शक्यते. किमर्थम् इति चेत् सरोवरं दृष्ट्वा जानाति यत् सरोवरे यत् जलम् अस्ति तद् द्रवम्. भाषाज्ञानं नास्ति तस्य, किन्तु इदं जलं घनरूपं नास्ति, मम पादाः तस्य उपरि स्थापयितुं न शक्नोमि इति जानाति सः. कुक्कुरः न अवगच्छति यत् जले द्रवत्वनां नामकगुणः अस्ति. साधारणजनाः अपि न जानन्ति, किन्तु यथा साधारणजनः कुक्कुरः अपि अवगच्छति यत् इदं जलं द्रवं, द्रवे द्रवत्वम् इति केवलं शास्त्रीयशैली विचारः, किन्तु सः एव समानः. अतः द्रवं प्रत्यक्षं, द्रवत्वम् अपि तथैव प्रत्यक्षम्. अस्तु, अत्र सिद्धान्ति द्रवस्य उदाहरणं अथवा द्रवत्वस्य उदाहरणं स्वीकृत्य साधयति यत् तद् इन्द्रियैः एव अस्माभिः ग्राह्यते. यथा पशवः तेषां अनुमानं ते अनुमानं न कर्तुं शक्नुवन्ति. तेषां तादृशं सामर्थ्यं नास्ति. केवलम् इन्द्रियैः एव ते जानन्ति यत् यस्मिन् जले जलं द्रवम् अस्ति इति जलं दृष्ट्वा एव ते जानन्ति यत् जलं द्रवम्. अतः तस्मिन् पादं न स्थापयितुं शक्नुमः इति. अनुमानस्य प्रयोजनम् अत्र नास्ति तेषाम् यतोहि तेषां तादृश अनुमानरीतिः न प्रयुज्यन्ते. तादृशमेव अस्माभिः अपि ज्ञायते यत् जलं द्रवम् अस्ति. द्रवम् अस्ति इति कारणात् तस्मिन् द्रवत्वम् इति न्यायशास्त्रे तादृशी शैली वर्तते. तथैव स्नेहविषये अपि चूर्णे पिष्टे स्नेहः वर्तते, स्नेहः इति गुणः वर्तते इति अस्माभिः ज्ञायते दृष्ट्वा. तत्तु इन्द्रियैः एव अस्माभिः ग्राह्यते इति सिद्धान्ति साधयति.
हा, समीचीनम्. इति मनसि भवेत्, सिद्धान्तिः चक्षुर्ग्राह्यत्वं साधयितुम् इच्छति. तदर्थं प्रथमतया द्रवत्वस्य उदाहरणं दत्तवान् सः. यथा जलं दृष्ट्वा वयं जानीमः तस्मिन् द्रवत्वम् अस्ति, अपि च जलं द्रवं, तस्मिन् विद्यमानः कश्चन स्वभावः अस्ति द्रवत्वम् इति यथा वदामः दृष्ट्वा एव ज्ञातुं शक्नुमः. तद्वत् स्नेहः अपि स्यात् इति साधयितुम् इच्छति. अस्तु, कुक्कुरस्य उदाहरणं किमर्थं दत्तं भगिनि पुनः?
कुक्कुरः पशुजन्तुः अस्ति, सः तु अनुमानं न कर्तुं शक्नोति. केवलं दृष्ट्वा नेत्रद्वयेन तस्य ज्ञानं भवति यत् इदं जलं द्रवम् इति.
हा, समीचीनं. तर्हि अंशो गत्वा द्रवत्वम् इन्द्रियग्राह्यम् इति सः उदाहरणं ददाति. अस्तु, सम्यक् अस्ति. इतः अग्रे अजितमहोदय अस्ति वा? अजित् महोदय अन्म्यूट् करोतु कृपया. भवतः प्रश्नः आसीत् खलु एतादृशम्.
भगिनी क्षम्यतां, क्षम्यतां भगिनी, अहं किञ्चित् अन्य
सरला भगिनी.
अस्तु, इदानीं भगिनी वदतु कृपया.
अग्रिमपरिच्छेदं पठतु. भवान् किञ्चित् संस्कारद्वारा इति किमपि पृष्टवान् गतवर्गे इति कृत्वा.
आमामाम् आम् अस्तु. अन्यच्च अनुभवस्य बलेन अपि कुक्कुरः जानाति एकवारं पादं जले संस्थाप्य अनुभवति यत् पादः जलस्य उपरि न तिष्ठति. तदाधारेण अग्रे गत्वा अग्रिमवारं यदा सरोवरस्य पार्श्वे आगच्छति सः स्मरति किम् अभवत् पूर्वं. पूर्वतनसंस्कारद्वारा अपि प्रत्यक्षज्ञानम् उत्पद्यते. तदेव मम प्रश्नः आसीत् भगिनि. इदानीं तत्र वदति पूर्वसंस्कारद्वारा प्रत्यक्षज्ञानम् उत्पद्यते. यदा कुक्कुरः पादं सरोवरस्य पार्श्वे आगच्छति सः स्मरति पूर्वं किम् अभवत् इति.
खलु, इति भवतः प्रश्नः आसीत्. आरम्भे प्रत्यक्षेण, प्रथमवारं प्रत्यक्षेण दृष्ट्वा द्रवत्वम् अस्ति इति जानाति. प्रथमवारम् आगच्छति द्रव, प्रत्यक्षेण अपि ज्ञातुं शक्यते. एकवारं पादं जले स्थापयति, प्रथमवारम् अनुभवति यत् पादः तत्र न तिष्ठति इति कृत्वा ओ अस्तु द्रवत्वम् इति प्रथमवारं जानाति. तदनन्तरम् अग्रे गत्वा गत्वा स्मरणस्य बलेन अपि सः द्रवत्वं दृष्ट्वा अभिज्ञातुं शक्नोति. यदा जलं पश्यति तदा तस्य मनसि भवति यदस्तु अत्र द्रवत्वम् अस्ति, पुनः तथा न स्थापयति इति. अस्तु, अग्रिमपरिच्छेदं महोदय.
घटान्तरं दृष्ट्वे घटान्तरं दृष्टे सति अविज्ञानं भवति अयं घटः, यतोहि अस्मिन् विद्यमानं घटत्वम् अनुभूयते. अयं मनुष्यः, इदं पुस्तकं, कथं जानीमः एतत् सर्वं. नवीनं पुस्तकं दृष्ट्वा जानीमः इदं पुस्तकमिति. कथं ज्ञायते पुस्तकत्वं गृहीतम् अस्ति अस्माभिः. श्रवत् जलं दृष्ट्वा ज्ञायते इदं जलं द्रवम्. जलं न सरति चेदपि दर्शनेन ज्ञायते अस्मिन् द्रवत्वम् अस्ति. अत्र प्रश्नः उदेति इदं द्रवत्वम् अनुमितं वा प्रत्यक्षं वा. उत्तरं भवति अनुमानमपि भवति किन्तु प्रत्यक्षमपि भवति. अनन्तरं अन्य उदाहरणं वयं पश्यामः. घटान्तरं दृष्ट्वे सति अभिज्ञानं भवति अयं घटः, यथा पुस्तकं दृष्ट्वा वदति इदं पुस्तकम् अथवा अयं मनुष्यः. एतत् नवीनं पुस्तकं दृष्ट्वा अपि जानीमः इदं पुस्तकमिति. तत्र प्रश्नः उदेति एतत् ज्ञानम् अनुमानद्वारा भवति वा अथवा प्रत्यक्षद्वारा भवति वा इति. उत्तरमस्ति अनुमानमपि अस्ति प्रत्यक्षमपि भवति इति. द्वयोः द्वारा ज्ञानं भवितुम्
अर्हति. सत्यं. तर्हि द्रवत्वस्य विषये, द्रवत्वस्य विषये अनुमानं कुत्र भवति, प्रत्यक्षं कुत्र?
द्रवत्वविषये स्रवत् जलं दृष्ट्वा ज्ञायते इदं जलं
द्रवमिति प्रत्यक्षरूपेण.
द्रवं प्रत्यक्षरूपेण
जलं न सरति चेदपि इदं द्रवत्वम् अस्ति इति जानीमः खलु, तद् अनुमानम् इति अहं चिन्तयामि. इत्येव मम अवगमनम् आसीत्. अन्ये किं वदन्ति, सावित्री भगिनी अथवा सरला भगिनी, जयन्ति भगिनी, किम्
जलं यदि न सरति तद् तदापि द्रवत्वं वयं जानीमः.
हा, अनुमानेन खलु. अत्र उक्तं यद् उत्तरं भवति यद् अनुमानमपि भवति किन्तु प्रत्यक्षमपि भवति. इत्युक्ते द्रवत्वं यदा जले स्रवत् जले द्रवत्वं तु प्रत्यक्षम् इति भाति, अपि च जलं स्थिरम् अस्ति चेत् तत्र अनुमानम् अनुमातुमपि शक्नुमः अत्र द्रवत्वम् अस्ति खलु इति मम अवगमनमासीत्.
न जानामि भगिनि, प्रत्यक्षम् एव इति भाति.
सत्यं खलु, प्रत्यक्षमेव भाति. ममापि
जलस्य धर्म अस्ति द्रवत्वं.
हा, जले द्रवत्वं स्यादेव इति, तर्हि अनुमानस्य प्रसङ्गः एव न उदेति इति अहं चिन्तयामि. राजेन्द्रमहोदय.
आं भगिनि, अहं चिन्तयामि यथा घटं दृष्ट्वा घटत्वम् अनुभूयामः, तत् अनन्तरं पुनश्च कोऽपि अन्य घटः पश्यामः, तत् घटत्वं तत्र अस्ति, घटं जानीमः, इदं घटम् इदं घटम् इदं पुस्तकं तत् जानीमः, यथा तत् धर्मम् एकवारं साक्षात् पश्यामः, तत् तथैव अहं चिन्तयामि जलमपि तथैव एकवारं यथा अस्माकं ज्ञानम् आगच्छति जले ध्रुवत्वम् अस्ति, तत्र जलं स्रवतु अथवा न स्रवतु तत् प्रायशः कोऽपि चिन्तन कोऽपि भेदः न अस्ति, तत् ध्रुवत्वम् अस्ति तत् जानीमः वयम्.
इत्युक्ते प्रत्यक्षरूपेण जानीमः, अनुमानस्य
अनुमानेनपि अस्ति, अनुमानेनपि अस्ति, परन्तु प्रत्यक्षरूपेण अपि भवति.
अनुमानेन कथं भवति?
यत्र यत्र कुत्रापि न साक्षात् न पश्यामः, तत्र कोऽपि वदति तत् एकं सरोवरम् अस्ति, अस्माभिः मनसि आगच्छेत् तत्रापि ध्रुवत्वं भवेत् भवति एव.
ओ अस्तु, तर्हि
स्मृति संस्काररूपेण भवति प्रायः खलु.
आमामां, तर्हि अनुमानप्रसङ्गे अन्यः कोऽपि वदति तदा अनुमानम् इति संस्काररूपेण.
भगिनी, अनुमानम् एवं कर्तुं शक्यते, यद् स्रवति तत् द्रवम् इति. यत् स्रवति तत् द्रवम्. द्रवत्वं यस्य मतं द्रवत्वं चक्षुषा न ग्रहीतुं शक्यते, सः किं वदति, तत्र किमपि द्रव्यं स्रवति तद्दृष्ट्वा वदति, तत्र साक्षात् द्रवत्वं न दृश्यति किन्तु स्रवत्वमेव दृष्टति, तद्दृष्ट्वा वदति तत् तस्मिन् द्रवत्वम् अस्ति इति.
महोदय, किन्तु अत्र प्रश्नः अस्ति, यः कोऽपि प्रत्यक्षरूपेण जलं पश्यति इति चिन्तयतु, अस्तु, घटे घटे जलं पश्यति, घटस्य जलं न स्रवति खलु. तत्र अनुमानस्य कोऽपि प्रसङ्गः नास्ति, यतोहि चक्षुषा यदि अहं प्रत्यक्षरूपेण जलं पश्यामि चेत् तर्हि अनुमानस्य प्रसङ्गः नास्ति एव खलु. अनुमानम् इति न
तस्मिन् उदाहरणे नास्ति, तस्मिन् उदाहरणे घटे जलमस्ति तस्मिन् तत् न स्रवति इति कारणात् तत्र प्रत्यक्षमेव, किन्तु यदा नदी स्रवति
अस्तु परार्थानुमान किमस्ति तत्र अनुमानविषये किमपि पठितवन्तः, स्वार्थानुमानं परार्थानुमानम् इत्यादिकम्. अन्यः अन्यः कोऽपि वदति नदी अस्ति तत्र अवश्यं द्रवत्वं स्यात् प्रायः. तदेव वदामि, कुक्कुरस्य विषये यदा प्रत्यक्षरूपेण जलं दृश्यते तर्हि तत्र अनुमानस्य प्रसङ्गः एव नास्ति प्रायः.
भगिनी, मम चिन्तनम् अस्ति, अत्र स्रवत्वम् अस्ति अतः द्रवत्वम् अस्ति इति अस्माकम् आन्दुविकं ज्ञानं, प्रत्यक्षज्ञानं भवति, यत्र स्रवत्वं न दृश्यते तत्र द्रवत्वं नास्ति. साधारणतया तादृशं तादृशपरामर्शः भवति. परन्तु पूर्वं पूर्वम् अस्माभिः अनुभूयते यत् सरोवरे तादृशसरोवरे पादं स्थापितवन्तः तत्र अन्तः गतः किमपि तादृशं किमपि अनुभवः आसीत्. अतः संस्काररूपेण आत्मनि किमपि अस्ति येन ज्ञायते यत् अनुमीयते यत् अत्र द्रवत्वं भवेत् इति.
प्रायः
इत्युक्ते भवत्याः चिन्तनं किम् अत्र महोदयी यद् दत्तं तत् न अङ्गीकरोति वा? उत्तरं भवति, अनुमानमपि भवति, किन्तु प्रत्यक्षमपि भवति. भवत्याः चिन्तनं प्रत्यक्षमेव इति वा?
सत्यं, यदा जलं पश्यामः तत्र द्रवत्वम् आनुभविकमेव भवति खलु. अनुमानः कुतः उदेति? अस्तु, तत्र न अन्यत् किमपि कस्यचित्?
हा, तत्र उत्तरं भवति, अनुमानमपि भवति. कथम् इत्युक्ते स्रवत्वात् द्रवत्वं, यत् स्रवति तत् द्रवम् इति अनुमानं. अत्र आङ्ग्लभाषायां वदामि चेत् स्रवति इत्युक्ते फ्लोयिङ्ग्, द्रवत्वम् इत्युक्ते फ्लूइडिटि. फ्लोयिङ्ग् दृष्ट्वा फ्लूइडिटि अस्माभिः ज्ञातुं शक्यते.
महोदय, हा सत्यं महोदय, दृष्ट्वा इति वार्ता आगच्छति चेत् तत्र प्रत्यक्षज्ञानं
किं तत्र कस्य दर्शनं? स्रवत्वस्य दर्शनं, न तु द्रवत्वस्य दर्शनं.
तर्हि उपरितन उदाहरणे कुक्कुरस्य विषये किम् उक्तं? कुक्कुरः प्रत्यक्षत्वेन द्रवत्वं पश्यति इति खलु.
यदि तत्रापि पश्यतु, यदि प्रथमवारं तत् तस्य पादं तस्मिन् स्थापयति चेत् विना ज्ञानेन, तत्र तस्मिन् द्रवत्वम् अस्ति इति विना ज्ञानेन पादं तत्र स्थापयति चेत् तत् अन्तर्गच्छति. द्वितीयवारं तस्य स्मरणमस्ति इत्यपि प्रायः अग्रे आगच्छति
इति अपि उक्तं महोदयेन. अपि च द्रवत्वं प्रत्यक्षम् इति अपि उक्तम्, उभयमपि उक्तमस्ति तत्रापि.
आम्, इत्युक्ते अनुमानम् अपि भवति इति न निराकर्तव्यम् इति मम केवलम् अनुमानेन एव ज्ञायते इति मम पक्षः नास्ति. अनुमानमपि कर्तुं शक्यते, प्रत्यक्षेन अपि ज्ञातुं शक्यते इति. अनुमानेन न ज्ञातुं शक्यते इति न वक्तुं शक्नुमः इति मम पक्षः.
अस्तु, सावित्री भगिनी भवत्याः
मम चिन्तनम् अस्ति यत् पिण्डीभावः अस्ति खलु, पिण्डीभावः एव न, यस्मिन् भास्वर भासते अथवा प्रकाश ट्रान्स्परेण्ट् इति कथं वक्तुं शक्नुमः, निर्मलता
जलस्य अभास्वरशुक्लरूपम्.
हा, यत्र तत् प्रतीयते तत्र अनुमानं कर्तुं शक्नुमः प्रायः द्रवत्वम् अस्ति इति. यतोहि घनरूपं पश्यामः तस्मिन् भास्वरशुक्लरूपम् अस्ति चेत् अथवा प्रकाशमानः अस्ति चेत् किञ्चित् ऊहां कर्तुं शक्नुमः यत् तत्र प्रायः द्रवत्वम् अस्ति इति.
अपि च तदपि स्यात्, अपि च द्रवत्वं केवलं जलवृत्तिः न, पृथिव्यामस्ति तेजसी. तस्मिन् सन्दर्भे प्रायः अनुमानम् अर्हं पृथ्वी तेजसं सन्दर्भे, किन्तु जलसन्दर्भे तु प्रायः साक्षात् एव द्रष्टुं शक्नुमः खलु द्रवत्वम् इति.
परन्तु अत्र यत् लिखितमस्ति द्रवे द्रवत्वम् इति केवलं शास्त्रीयशैलीविचारः, किन्तु स एव समानः. अतः द्रवं प्रत्यक्षं, द्रवत्वमपि तथैव प्रत्यक्षम् इत्युक्ते जलस्य एव इति न.
आम्, यत्किमपि यत्र कुत्रापि द्रवत्वम् अनुभूयते तत्र तत्र अस्तु, अग्रे सरेम, किं किमस्ति इति पश्येम. सरला भगिनी अग्रे.
कथान्तरं दृष्टे सति अभिज्ञानं
तदभवत् ततः अग्रे एवमेव
एवमेव पिण्डीभावं दृष्ट्वा अस्मिन् जले स्नेहः स्यात् इति अनुमानं तु भवति, किन्तु स्नेहस्य साक्षात् प्रत्यक्षमपि भवति। अनुमानं तु सर्वथा एव प्राप्तं वर्तते। यस्य प्रत्यक्षं भवति तत्र अनुमानं न भवति इति नास्ति। रूपस्य अपि अनुमानं कर्तुं शक्यते। अत्र रूपम् अस्ति इत्यस्य किं प्रमाणम्? अहं पश्यामि इति प्रमाणम्। अतः एव पश्यामि यतोहि तत्र रूपम् अस्ति इति अनुमानम्। पिण्डीभावः वर्तते अतः अनेन ज्ञायते प्रत्यक्षेण यत् स्नेहः अस्ति इति अनुमानं, न तु स्नेहस्य प्रत्यक्षम्। वस्तुतः तु जलं दृष्ट्वा अत्र स्नेहः अस्ति इति जानीमः। यया रीत्या रूपं दृश्यते, द्रवतं दृश्यते च, अनया एव रीत्या स्नेहः अपि दृश्यते। द्रवीभूते जले एव स्नेहः भवति इति प्रत्यक्षम्। अत्र दत्तम् अस्ति अनेन उदाहरणेन कथं स्नेहः प्रत्यक्षं भवति, साक्षात् प्रत्यक्षं भवति स्नेहस्य चक्षुषा, यथा रूपम् अस्ति वा द्रवतम् अस्ति। पिण्डीभावः यदि वयं पश्यामः तस्य कारणमस्ति स्नेहः, अनुमानं तु भवति। पिण्डीभावं दृष्ट्वा अनुमानं वयं ज्ञायते तत्र स्नेहः वर्तते, किन्तु स्नेहस्य साक्षात् प्रत्यक्षमपि भवति। अत्र दत्तमस्ति न केवलम् अनुमीयते किन्तु प्रत्यक्षमपि भवेत्। अनुमानं तु सर्वथा एवं प्राप्तं वर्तते। पिण्डीभावं दृष्ट्वा अनुमानं स्नेहस्य अवश्यं भवति। यस्य प्रत्यक्षं भवति तत्र अनुमानं न भवति इति नास्ति। यदा वयं पूर्वं दृष्टवन्तः प्रत्यक्षम् अस्ति तत्र अनुमानं न भवति इति, अतः कः नियमः नास्ति। प्रत्यक्षं भवति, अनुमानं भवति वा अनुमानं भवति प्रत्यक्षं न भवति, एतत् कोऽपि नियमः नास्ति। रूपस्य अपि अनुमानं कर्तुं शक्यते। यदि वयं जानीमः रूपसाक्षात् प्रत्यक्षं चक्षुषा गृह्यते, किन्तु रूपस्य अनुमानमपि वयं कर्तुं शक्नुमः। अत्र रूपम् अस्ति तस्य किं प्रमाणं? रूपस्य प्रमाणं कः अस्ति? अहं साक्षात् पश्यामि इति रूपस्य प्रमाणं भवति। अत्र एव पश्यामि यतोहि तत्र रूपम् अस्ति इति अनुमानम्। अहं पश्यामि तत् भवति रूपस्य अनुमानम् अपि, तथा अहं न अवगच्छामि।
भगिनि, तत्र रूपमस्ति इति प्रत्यक्षेण द्रष्टुं शक्नुमः, किन्तु यत्किमपि प्रत्यक्षमस्ति तत्रापि अनुमानं भवति इति सः वदति। इत्युक्ते रूपं किमर्थमस्ति? यतोहि मम आत्मनि अहं पश्यामि इति ज्ञानम् उत्पद्येत, खलु? नीलघटः मम पार्श्वे मम पुरतः अस्ति चेत् अस्तु, नीलघटः इति मम आत्मनि ज्ञानम् उत्पद्यते चेत् तदा अस्तु, घटः नीलः अस्ति, किमर्थम्? अहं नीलं पश्यामि
पश्यामि
हा, तादृश अनुमानस्य विषये अत्र वदति। तेन तर्केण प्रायः द्रवत्वस्य अनुमानमपि
अस्ति। पिण्डीभावः वर्तते अतः अनेन ज्ञायते प्रत्यक्षेण यत् स्नेहः अस्ति इति अनुमानं, न तु स्नेहस्य प्रत्यक्षम्। अत्र यदि पिण्डीभावः वर्तते इत्युक्ते पिण्डीभावः विद्यमानः अस्ति, तस्य कारणमस्ति प्रत्यक्षस्नेहम्। तत्र स्नेहप्रत्यक्षमपि न तु अनुमानं केवलम्। अहं तदपि
तत्रापि पिण्डीभावः वर्तते अतः अनेन ज्ञायते प्रत्यक्षेण यत् स्नेहः अस्ति। अस्तु, स्नेहः
प्रतिपक्षिणा
अस्तु अस्तु सत्यं किन्तु द्वीन्द्रियग्राह्यत्वम् इति उक्तं खलु मम मतम् एवम् अस्तु चक्षुषा निश्चयेन ज्ञातुं न शक्नुमः प्रायः पिण्डिभावः दृश्यते न तु स्नेहः इति प्रायः अस्ति परन्तु स्नेहः इति कश्चन क्वालिटि अस्ति खलु यद् स्लिपरि भवति तादृशं ग्रीसि स्लिपरि तद् त्वचा तु त्वचाद्वारा अवगन्तुं शक्नुमः किल स्पृष्ट्वा तु अवगन्तुं शक्नुमः इति अहं चिन्तयामि यद्यपि द्वीन्द्रियग्राह्यत्वम् इति उच्यन्ते तर्हि चक्षुषा कथम् इति न जाने परन्तु त्वचा तु न्यूनातिन्यूनं शक्यम् इति मम
भगिनी वयं स्केटिङ्ग् कुर्मः तत्र स्नेहः अस्ति
जले स्नेहः भवति
एतत् प्रत्यक्षं भवति तत्र
ओ इत्युक्ते तत्र स्नेहः प्रत्यक्षम् अस्ति इति भवती वदति
आमां
किन्तु तत्र पिण्डिभावः अपि नास्ति
तत्र पिण्डिभावः अपि नास्ति जले स्नेहः अस्ति
सत्यं स्केटिङ्ग् इति यद्भवति उक्तवती तत्र किं तत्र संयोगः पिण्डिभावः वत् नास्ति खलु विलक्षणसंयोगः तत्र करक अथवा ऐस् इति अस्ति तस्मिन् द्रवत्वमपि न भवेत् इति उक्तमासीत् पुस्तके एव अनुभव भवामः अपि किन्तु तत्र स्नेहः अस्ति वा इति प्रश्नः
अस्तु या
अस्तु अग्रे अग्रे पश्येम कथं चक्षुषा वा त्वचा वस्तुतः जलं दृष्ट्वा
अतः अत्र स्नेहः अस्ति इति जानीमः यया रीत्या रूपं दृश्यते द्रवतं दृश्यते च अनया एव रीत्या स्नेहः अपि दृश्यते द्रवीभूते जले एव स्नेहः भवति इति प्रत्यक्षं यया रीत्या वयं पूर्वं दृष्टवन्तः जलम् अस्ति द्रवं भवति द्रवम् अस्ति तत्र द्रवत्वम् अस्ति यथा कुक्कुर जानाति तस्य प्रत्यक्षं भवति वा चक्षुषारूपं प्रत्यक्षं जानीमः तया रीत्या एव जले स्नेहः प्रत्यक्षं भवति इति
हा इति अस्ति जले तु प्रत्यक्षरूपेण जानीमः किल भगिनि जलं दृष्ट्वा हा स्नेहः जलं दृष्ट्वा भवत्याः द्वितीयबिन्दुः अस्ति वस्तुतस्तु जलं दृष्ट्वा अत्र स्नेहः अस्ति इति जानीमः इत्युक्ते प्रत्यक्षरूपेण जानीमः किन्तु पिण्डीभावस्थले अनुमानं न तु स्नेहस्य प्रत्यक्षम् इति अपि उक्तं पूर्वतनवाक्ये तर्हि अनुमानेन अपि सिद्ध्यति प्रत्यक्षेण अपि स्नेहः
सिद्ध्यति
इति स्यात्
अस्तु
भगिनि एकः प्रश्नः अत्र अन्तिमवाक्यम् अस्ति खलु द्रवीभूते जले एव स्नेहः भवति इति प्रत्यक्षं तत्र विशेषणविशेषभावः अस्ति वा उद्दिश्य विधेयभावः अस्ति वा द्रवीभूते जले उद्दिश्य विधेयभावः खलु
विशेषणविशेषभावः इति चिन्तयामि किमर्थं भवति उद्देश्यविधेय द्रवीभूतं जलं सप्तमी विभक्तौ द्रवीभूतं
तत्रापि समानविभक्तित्वम् अस्ति खलु
अस्तु उद्देशविधेयभावस्य एकम् उदाहरणं ददामि एषः मम मित्रम् इति अस्ति चेत् एषः पुल्लिङ्गपदं मित्रं तु नपुंसकलिङ्गपदं
तर्हि
तत्र मित्रम् उद्दिश्य तस्मिन् न एतम् उद्दिश्य तस्मिन् मित्रत्वम् आरोपयामि
आरोपयामः अत्र पश्यतु द्रवीभूते जले इत्युक्ते द्रवत्वं जले भवति इति तत्र अर्थः एव नास्ति जलं द्रवम् इत्युक्ते जलमेव द्रवं खलु
तत्र इत्युक्ते प्रायः करक इति अवस्थायां जलं द्रवं नास्ति ऐस् यदा तद् द्रवीभूतं भवति तदा तस्मिन् जले स्नेहः प्र प्रत्यक्षं भवति इति अर्थः स्यात्.
अस्तु भगिनि. ब्रह्मीभूते जले यत्र करकविषये आगच्छति तत्र अस्तु.
तत्र घनं भवति खलु, द्रवीभूतं जलं नास्ति.
आमामाम्
अस्तु. तर्हि अत्र किं पठन्तः स्मः? हा, सिद्धान्तिनः विचारः एव. सिद्धान्ती वारं वारं भवति वदति यत् स्नेहः प्रत्यक्षरूपेण सिद्ध्यति द्रवीभूते जले, अपि च पिण्डीभावस्थले तत्र अनुमानेन स्नेहः अस्ति इति ज्ञातुं शक्नुमः इति सिद्धान्ती अधुना वदन् अस्ति. अस्तु भगिनि, सावित्री भगिनी अग्रे.
अस्तु. कोऽपि मनुष्यः एकं लघु बालकं सूचयति यत् इदं शुक्लरूपम्, इदं नीलरूपम् इत्यादिकम्. अनेन बालकः अवगच्छति यत् कस्य कस्य रूपस्य नामकरणं किमिति. आरम्भे तथा भवति, तदा अग्रे गत्वा यत्र यत्र शुक्लरूपं वर्तते तत्र तत्र चक्षुषा दृष्ट्वा ज्ञायते यत् इदं शुक्लरूपमिति. तथैव जले स्नेहः भवति, तस्य च इदं कार्यमस्ति इति कोऽपि अस्मान् बाल्यकाले सूचयति. एकवारम् अन्यद्वारा ज्ञात्वा प्रतिवारं जलं दृष्ट्वा वयं शक्नुमः वक्तुं शक्नुमः अत्र स्नेहः अस्ति इति. अस्तु. अत्र पुनः बोधकानन्तरं यत् प्रथमवारं यथा कुक्कुरः न जानाति स्म, तथैव अत्र लघुबालकः अस्ति चेत् कोऽपि मनुष्यः सूचयति प्रथमवारं इदं शुक्लरूपम्, इदं नीलरूपम् इत्यादिकं. तदनन्तरं यत्र कुत्रापि सः शुक्लरूपं वा नीलरूपं वा पश्यति, तदा सः अवगच्छति अत्र शुक्लरूपं वर्तते अथवा नीलरूपं वर्तते इति. चक्षुषा दृष्ट्वा ज्ञायते इदं शुक्लरूपं वा नीलरूपं वा. परन्तु बोधनस्य पूर्वं सः न जानाति अत्र तस्य बोधनद्वारा अवगच्छति यत् अस्तु पश्यामि अत्र शुक्लरूपं पश्यामि अथवा नीलरूपं पश्यामि इति. तथैव जले अपि स्नेहः भवति इति यः कोऽपि अस्मान् बोधयति, तदनन्तरं यत्र कुत्रापि वयं जलं दृश्यामः तत्र सर्वत्र स्नेहः अस्ति इति वक्तुं शक्नुमः इति. अत्र किमपि नूतनं नास्ति, परन्तु
अस्तु. तर्हि स्नेहः प्रत्यक्षेण एतावत्पर्यन्तं यत्किमपि पठितवन्तः सिद्धान्तिनः मतमस्ति, स्नेहः प्रत्यक्षेणापि ज्ञायते अनुमानेनापि ज्ञायते. अस्तु, तर्हि अग्रे सरेम. प्रतिपक्षी किं वदति इति वर्धिनी भगिनी.
क्षम्यतां भगिनि, यत् परिच्छेदम् इदानीम् अस्माभिः पठितं तत्र तर्के किञ्चित् क्लेशः अस्ति इति मम चिन्तनं. किमित्युक्ते बालकः, लघुबालकः रूपं साक्षात् चक्षुषा पश्यति, किन्तु तस्य रूपस्य नाम किम् इत्येव सः न जानाति.
आम् आम् इति मम मनसि अपि आगतं.
इदानीं तदेव अहम् उक्तवती खलु, पश्यति परन्तु बोधनस्य पूर्वं सः न जानाति इदं शुक्लरूपम् इति.
नामकरणम् अन्यः कोऽपि करोति
प्रथमतया. तत्तु भिन्नज्ञानं, तस्य नामं, तद् रूपस्य नामं किम् इति तद् भिन्नज्ञानं. तत् अन्यः वदति चेत् एव बालकेन ज्ञातुं शक्यते, किन्तु तादृशं स्नेहः अपि प्रत्यक्षार्हम् इति तत्र तर्के.
सत्यं सत्यम्, अत्र स्नेहस्य प्रत्यक्षस्य विषये समर्थनं नास्ति, केवलं स्नेहस्य नामकरणविषये समर्थनमस्ति इति अहं चिन्तयामि.
यथा इदानीं महोदय आगच्छति मम पुरतः, अहं न जानामि सः शुकवनमहोदय इति, परन्तु यदा सः वदति एकवारं तदनन्तरम् अहं जानामि.
स्नेहस्य सत्यं, स्नेहस्य नामकरणं अन्ये केऽपि कुर्युः तदा वयं जानीमः अस्तु अयं स्नेहः इति.
अस्तु
अस्तु, अग्रे गच्छेम. वर्धिनी भगिनी
आं भगिनि, प्रतिपक्षी यत्र जलीयपरिमाणुषु द्रवत्वं वर्तते तैः च यदा जलीयपरिमाणुभिः करका भवति तदा द्रवत्वं न अनु कृत्वा प्रश्नः उदेति, किमर्थं कश्चन किञ्चन अदृष्टं प्रतिबन्धकम् अस्ति इति वक्तव्यम् इति प्रश्नः। यदा रीत्या जले स्नेहः इति केनचन अस्मान् सूचितं तथा रीत्या अस्यां करकायां द्रवत्वं प्रति किञ्चन प्रतिबन्धकम् अस्ति इति केनचित् अस्मान्
कोऽपि अस्मान् सूचितवान् इति अस्ति खलु भगिनि तत्र
केनचित् कोऽपि वा केनचित् इति अस्ति,
अस्तु रिफ्रेश् करोतु प्रायः, अस्तु पठतु।
अस्मान् सूचितं
सूचितवान् तदा ज्ञात्वा
सूचितवान् तदा ज्ञात्वा किन्तु तन् अदृश्यते चक्षुषा इति कृत्वा अदृष्टमिति उच्यते, तर्हि तत्र अदृष्टमिति उच्यते किन्तु अत्र स्नेहः इत्यस्य साक्षात् नामकरणं जातम्, अत्र अदृष्टमिति न उच्यते। प्रतिपक्षी वदति जलीयपरिमाणुषु द्रवत्वं वर्तते तैः यदा जलीयपरिमाणुभिः करका भवति तदा द्रवत्वं न अनुभूयते इति कृत्वा किमर्थं किञ्चन अदृष्टं प्रतिबन्धकम् अस्ति इति वक्तव्यं, करका अस्ति चेत् प्रतिबन्धकम् अस्ति इति।
हा इत्युक्ते जलीयपरमाणवः भवन्ति खलु, जलम् इति भवति तस्य परमाणुषु द्रवत्वम् अस्ति, तदेव जलम् एकवारं यदा करका भवति तदा न अनुभूयते द्रवत्वं, न द्रष्टुं शक्नुमः करकायां
कश्चन प्रतिबन्धकम् अस्ति इति चिन्तनं,
यद् न दृश्यते तद् अदृष्टं प्रतिबन्धकम् इति उक्तवन्तः। हा तया एव रीत्या किम् अग्रे
जले स्नेहः इति केनचन अस्मान् सूचितं तया रीत्या अस्यां करकायां द्रवत्वं प्रति किञ्चन प्रतिबन्धकम् अस्ति इति केनचित् अस्मात् सूचितं तद् ज्ञात्वा किन्तु तन् अदृश्यते चक्षुषा इति कृत्वा अदृष्टम् इति उच्यते
इत्युक्ते प्रतिपक्षी न अङ्गीकरोति एव स्नेहः दृश्यते इति सः न अङ्गीकरोति, अधुनापि सः वदन् अस्ति यद् अस्तु जले स्नेहः अस्ति इति कोऽपि अस्मान् सूचितवान् तावदेव, किन्तु अहं न पश्यामि यथा करकायां द्रवत्वस्य अदृष्टम् इति, द्रवत्वं यदा न पश्यामः यदि न पश्यामः तदा अदृष्टम् इति उक्तवन्तः, किमपि नामकरणं न सञ्जातं खलु, अदर्शनेन नामकरणं न सञ्जातं, केवलम् अदृष्टम् इति उक्तवन्तः, तद्वद् अत्रापि अदर्शनम् अस्ति परन्तु नामकरणं सञ्जातं स्नेहः इति, किमर्थम्?
अदृश्यते चक्षुषा इति कृत्वा अदृष्टमिति उच्यते, तत्र अदृष्टमिति उच्यते किन्तु अत्र स्नेहः इत्यस्य साक्षात् नामकरणं जातम्, अत्र अदृष्टमिति न उच्यते, स्नेहः इत्यस्य साक्षात् नामकरणं जातम् अत्र अदृष्टमिति न उच्यते
इत्युक्ते यद् न दृष्टं तत्तु अदृष्टम् इति उक्तवन्तः, परन्तु अत्र किमर्थं स्नेहः इति उच्यते इति खलु, पूर्वस्मिन् परिच्छेदे किञ्चित् नामकरणविषये वयं दृष्टवन्तः जले स्नेहः भवति इत्यादिकं, प्रतिपक्षी तु तद् न पश्यति एव, चक्षुषा कथं ज्ञायते इति सः पृच्छति, विशेषतया पिण्डीभावस्थले स्नेहः न दृश्यते एव, किन्तु यद् न दृश्यते तस्य नामकरणम् अत्र कृतवन्तः, परन्तु यद् न दृश्यते करकास्थले तत्र अदृष्टं प्रतिबन्धकम् इति उक्तवन्तः, तादृशं किमर्थम् इति प्रतिपक्षिणः प्रश्नः। अस्तु अग्रे सरे मतरि राजेन्द्रमहोदय।
आम् आं भगिनि, सिद्धान्ति उत्तरमस्ति ततः भगिनि
आमाम्
उत्तरमस्ति यत् कर्कस्थले कारणम् अस्ति किन्तु कार्यं न जायते तर्हि किमपि प्रतिबन्धकम् अस्ति इति अस्माभिः ज्ञायते तत् दृष्ट प्रतिबन्धकं तदृष्टप्रतिबन्धकं नास्ति इति कृत्वा अदृष्टप्रतिबन्धकं किन्तु स्नेहः तथा नास्ति स्नेहः इति साक्षात् प्रत्यक्षम् अस्ति चक्षुषा वा त्वचा च गृह्यते सिद्धान्ती वदति यत् कर्कस्थे यथा वयं चर्चा कुर्मः तत् कारणम् अस्ति परन्तु तत् कार्यं न जायते तत् द्रवत्वं अहं चिन्तयामि कार्यम् इत्युक्ते द्रवं न जायते कारणम् अस्ति आं भगिनि
कारणं किं तर्हि
जलं तु अस्ति मूले जलमेव आसीत् तत् किमपि कारणं तत् करकः जातः
हा कारणं तु जलं समवायिकारणं खलु द्रवत्वस्य तत्तु अस्ति करक इति जलस्य परिवर्तितं रूपम् इति जानीमः तत्तु अस्ति परन्तु द्रवत्वं न दृश्यते
कार्यं न
कार्यं न जायते अस्तु
तर्हि किमपि प्रतिबन्धकं बन्धकम् अस्ति इति अस्माभिः ज्ञायते तदा अहं ज्ञातुं शक्नुमः तत्र कोऽपि प्रतिबन्धकम् अस्ति यत् कारणात् तत्र कार्यं न जायते तद्दृष्टप्रतिबन्धकं नास्ति तत् वयं न द्रष्टुं शक्नुमः तत् प्रतिबन्धकं तत् कारणात् तत् अदृष्टप्रतिबन्धकं वदामः किन्तु स्नेहः तथा नास्ति सिद्धान्ति वदति स्नेहः तथा नास्ति स्नेहः तु साक्षात् प्रत्यक्षम् अस्ति यथा वयं जलं पश्यामः तत्र स्नेहः अपि साक्षात् प्रत्यक्षम् अस्ति चक्षुषा वा त्वचा वा गृह्यते चक्षुषा त्वचा च गृह्यते अस्माभिः तत्कारणात् तत्र सा भेदः अस्ति कर्कस्थले अथवा जल स्नेह यथा स्नेहस्य चर्चा भवति
हा इति ते वदन्ति सिद्धान्ति स्नेहः तथा नास्ति खलु अस्माभिः चक्षुषा अपि त्वचा गृह्यते अस्तु प्रत्यक्षम् इत्युक्ते अत्र केनचित् इन्द्रियेण गृह्यमाणम् इति स्नेहः तथा अस्ति इति अस्तु अग्रे अपि पठतु महोदय
अन्यच्च कर्कायाः द्रवत्व अभावप्रसङ्गे विद्याधर्यां प्रतिबन्धात् अदृष्टविशेषात् इति उक्तम् अदृष्टविशेषात् नाम धर्मविशेषात् अधर्मविशेषात् वा अदृष्टं नाम यत्किमपि न दृश्यते इति न कर्काद्वारा कस्यचित् हानिः जायते दुःखम् उत्पद्यते तर्हि अधर्मविशेषः इति तत्र कारणं कर्काद्वारा कस्यचित् सुखम् उत्पद्यते तर्हि धर्मविशेषः इति तत्र कारणम् अन्यच्च कर्कायाः तत्र द्रवत्व अभावप्रसङ्गे विद्याधर्यामः अस्ति प्रतिबन्धात् अदृष्टविशेषात् इति उक्तम् यत्किमपि प्रतिबन्धकम् अस्ति तत्र अदृष्टम् अस्ति अदृष्टविशेष अदृष्टमः अस्ति इति तत्र विद्याधर्यामः लिखितम् अस्ति अदृष्टविशेष नाम धर्मविशेषात् तत् भगिनी ज्ञातुं शक्नुमः अत्र अवगच्छामि किम् अस्ति अत्र परन्तु कथं तस्य तेषां तर्कः कथम् अस्ति तन्न जानामि
हा अत्र करकायां द्रवत्वं किमपि नास्ति किमर्थं प्रतिबन्धकः अस्ति प्रतिबन्धकम् इत्युक्ते किम् अत्र अदृष्टविशेषः कश्चन
परन्तु धर्मः अधर्मः कुतः
यतोहि पूर्वमपि अदृष्टः इत्युक्ते किं धर्माधर्मौ खलु यद् अस्माभिः न दृश्यते परन्तु तस्य फलं दृश्यते यः कोऽपि सुखी अस्ति जीवने तं दृष्ट्वा वयम् अनुमातुं शक्नुमः ओ सः धर्मं कृतवान् किमपि इति तदर्थं धर्माधर्मौ अदृष्टविशेषौ इति उच्यते अत्र
अहं चिन्तितवान् यथा कर्काविषयः अस्ति तत् धर्म अधर्मः न अस्तु इदानीम् अवगच्छामि
करकाद्वारा
यत् कपि हानि जायते तत् दुःखम् उत्पद्यते तत् अधर्मविशेषः यथा सुखम् उत्पद्यते तत्र सः तु धर्मविशेषः इति कारणम्
हा इत्युक्ते अधर्मः एकनिमिष भगिनि दुःखम् उत्पद्यते दुःखम् इति फलं तद्दृष्ट्वा
आमाम्
अधर्मविशेषः अस्तु पुनः करकाद्वारा कस्यचित् दुःखं यः कोऽपि यथा सरला भगिनी उक्तवती आसीत् स्केटिङ्ग् करोति करकायां पतति चेत् दुःखम् उत्पद्यते तर्हि तस्य विषये तस्य फलरूपेण अधर्मविशेषः करकायाम् अस्ति तद् फलं दृष्ट्वा अधर्मविशेषात् करका जाता इति वक्तुं शक्नुमः कस्यचित् करकाद्वारा सुखम् उत्पद्यते चेत् अस्तु धर्मविशेषेण करका उत्पन्ना इति अनुमातुं शक्नुमः इति
यावत् न पतति तत् तावत् सुखम् उत्पद्यते
सुखम् उत्पद्यते इति किञ्चित् तथा स्यात् धर्माधर्मौ इति अदृष्टविशेषौ
भगिनि अत्र धर्मौ अत्र कार्यं सङ्केतं करोति न तु कारणं
धर्माधर्मौ संस्कार व्यापारः भगिनि व्यापारस्य किञ्चित् एकं करपत्रम् आसीत् खलु तत्र धर्माधर्मौ भावनाख्यसंस्कारः इति व्यापाराः व्यापाररूपेण कार्यं कुर्वन्ति किमपि फलम् उत्पादयन्ति धर्मः इति सुखम् उत्पादयति अधर्मः इति दुःखम् उत्पादयति इति तर्हि प्रश्नः कः आसीत्
मम प्रश्नः अस्ति यदि कारिका अस्ति तस्य कारणे दुःखं यदि उत्पद्यते तत् भवति कार्यं दुःखम् उत्पद्यते
हा दुःखम् उत्पद्यते करकाद्वारा किन्तु तत्र अधर्मविशेषः अधर्मः इति माध्यमरूपेण कार्यं करोति इत्युक्ते कस्यचित् जीवने दुःखम् उत्पद्येत करकाद्वारा इति अस्ति चेत् तदा अधर्मविशेषरूपेण करका जाता इति प्रतिबन्धकः तत्र अधर्मः अस्ति करकायां द्रवत्वं प्रतिबध्नाति अधर्मविशेषः इति किञ्चित् चिन्तनीयम्
भगिनी तत्र तस्मिन् करपत्रे आसीत् ये धर्म अधर्म तत्र अति इन्द्रियगुणाः सन्ति
सत्यं हा महोदय अतीन्द्रियगुणाः इति सत्यमेव तदर्थमेव अहम् उक्तवती व्यापारमाध्यमेन तिष्ठन्ति इत्युक्ते सुखस्य व्यापारः धर्मः दुःखस्य व्यापारः अधर्मः इति अनुमानं कृत्वा धर्माधर्मौ स्तः इति साधयन्ति ते यतोहि इन्द्रियद्वारा न अवगन्तुं शक्नुमः व्यापारद्वारा अनुमीयते इति
तत्कारणात् एव अदृष्टं प्रतिबन्धकं
वक्तुं
नाम
आम् सत्यम् अस्तु वर्धिनी भगिनी पठितवती राजेन्द्रमहोदय पुष्पा भगिनी अग्रे अस्ति वा पुष्पा भगिनी
सम्यक् नास्ति
अस्तु अस्तु भगिनि हा हा अजित् महोदय अस्ति वा न स्यात् तर्हि पुनः शुकवन महोदय
किन्तु स्नेहप्रसङ्गे विद्याधर्यां यतोहि उच्यते यत् इन्द्रियैः न गृह्यते अनुमातव्यमस्ति अतः वक्तव्यं भवति यत् जले कश्चन गुणः अस्ति स्नेहनाम्ना यश्च गुणः पिण्डीभावं प्रति कारणं किन्तु स च स्नेहनाम्ना गुणः इन्द्रियैः न गृह्यते कार्यं दृष्ट्वा कारणस्य अनुमानम् अस्माभिः क्रियते अत्र नामकरणं स्नेहः करकायाम् अदृष्टप्रतिबन्धकस्य नामकरणं धर्मः अधर्मः वा इदानीमपि सिद्धान्ति एव वदति किल भगिनि किन्तु स्नेहप्रसङ्गे विद्याधर्यां यतोहि उच्यते यत् इन्द्रियैः न गृह्यते अनुमातव्यमस्ति, अतः वक्तव्यं भवति यत् जले कश्चन गुणः अस्ति स्नेहनाम्ना, यश्च गुणः पिण्डीभावं प्रति कारणं, किन्तु स च स्नेहनाम्ना गुणः इन्द्रियैः न गृह्यते इति विद्याधर्यां उक्तमस्ति. पिण्डीभावं दृष्ट्वा पिण्डीभावम् एव द्रष्टुं शक्नोति, तद्दृष्ट्वा स्नेहाख्यगुणः जले वर्तते इति अस्माभिः अनुमीयते इति विद्याधर्यां वदति. कार्यं दृष्ट्वा कारणस्य अनुमानम् अस्माभिः क्रियते इति विद्याधर्यां ग्रन्थकारेण उक्तम्. अत्र नामकरणं स्नेहः, करकायाम् अदृष्टप्रतिबन्धकस्य नामकरणं धर्माधर्मः वा इति. इदानीं यद्यपि सिद्धान्ती वदति किन्तु अत्र पूर्वपक्षिणः पक्षः किम् इति सः वदति किल.
न, पूर्वपक्षिणः प्रश्नः किम् आसीत् इतः पूर्वं? पूर्वपक्षी पृष्टवान् अस्तु एकवारं यद् न दृश्यते तद् अदृष्टम् इति उक्तवान्, किन्तु स्नेहः इति नामकरणं कृतवान्, स्नेहः अपि न दृश्यते खलु इति पूर्वपक्षी पृष्टवान्. उत्तररूपेण सिद्धान्ती वदति न, तथा नास्ति, अत्रापि नामकरणमस्ति, धर्मः अधर्मः इति स्पष्टीकुर्वन् अस्ति.
ओ, करकायाम् अत्र नामकरणं स्नेहः इति, किन्तु तत्र किञ्चित् भ्रमः जायते भगिनि. किमर्थमित्युक्ते पिण्डीभावं प्रति कारणत्वं, पिण्डीभावं दृष्ट्वा स्नेहः इति गुणः जले वर्तते इति तस्य नामकरणं वयं कृतवन्तः इति सिद्धान्ती एव वदति वा?
सत्यं सः इत्युक्ते सिद्धान्तिनः मतपरिवर्तनं न जातं, केवलम् अधुना नामकरणस्य विषये वार्ता. इत्युक्ते सिद्धान्ती वदति यथा वयं पिण्डीभावं प्रति कारणं स्नेहः इति नामकरणं कृतवन्तः, तथा एव करकायां द्रवत्वाभावस्य प्रतिबन्धकस्य नामकरणं धर्मः अधर्मः.
हा, किन्तु सिद्धान्तिनः पक्षः पिण्डीभावं दृष्ट्वा स्नेहः इति नामकरणं अस्माभिः कृतम् इति न किल. तत्र साक्षात्
विद्याधरी ग्रन्थकारस्यैव मतं पुनरुच्चार्य यथा अत्र नामकरणं कृतं स्नेहः इति, तद्वद् करकास्थले द्रवत्वाभावस्य प्रतिबन्धकस्य नामकरणं धर्मः अधर्मः इति अस्ति, नाम तत्रापि अस्ति नामकरणम् इति साधयितुम् इच्छति सिद्धान्ति.
ओ, सो पूर्वपक्षिणः मतमेव स्वीकृत्य नामकरणं व्यवस्थापयति.
नामकरणस्य विषये अधुना, यतोहि प्रश्नः द्वितीयः प्रश्नः नामकरणम् इति आसीत् तदर्थम्.
अस्तु भगिनि,
अस्तु अग्रे अपि महोदय.
किन्तु तत्तु विद्याधर्यामेव, वस्तुतस्तु यया रीत्या जले द्रवत्वं वर्तते इति दर्शनेन ज्ञायते, तया एव रीत्या जलस्य दर्शनेन ज्ञायते यत् अस्मिन् स्नेहः वर्तते. अतः विद्याधर्यां यल्लिखितमस्ति तत्तु न्याये सामान्यशास्त्रस्य विरुद्धविचारः. इदानीं तस्य मतं किम् इति स्पष्टतया वदति. तत्तु यया रीत्या जले द्रवत्वम् इति गुणः वर्तते इति प्रत्यक्षेन अस्माभिः ज्ञायते, तया रीत्या एव जले स्नेहाख्यगुणः वर्तते इत्यपि अस्माभिः ज्ञातुं शक्यते. अतः अनुमानेनैव स्नेहाख्यगुणः जले वर्तते इति विद्याधर्यां यत् लिखितमस्ति तत्तु न्यायशास्त्रे तादृशं तेषां मतं नास्ति. प्राचीनानाम् अपि च नव्यनैयायिकानां मतं तु प्रत्यक्षेण एव स्नेहस्य ज्ञानं प्राप्तुम् अर्हति, न तु अनुमानेन एव.
पुनः स्वस्य मतम् उच्चारयति सिद्धान्ती.
आम् आम्
इति अस्ति. अस्तु अग्रे गच्छेम. जयन्ती भगिनी, पृच्छन्ति भगिनि
क्षम्यतां प्रतिपक्षी एतावता यद् उक्तं भवता तदाधारेण स्नेहः चक्षुषा च त्वचा गृह्यते इति किमपि स्पष्टं नास्ति. प्रत्यक्षम् अस्ति इति मम तु न भाति एव. इदानीमपि न उक्तं यत् जले किं दृश्यते यत् स्नेहनामकं स्यात्. यद्यपि सिद्धान्ति बहु किमपि वदति स्नेहविषये, तस्य नामकरणं कथं भवति वा कारणरूपेण किमपि स्यात् अनुमानेन अस्माभिः ज्ञातव्यं भवति इत्यादयः. प्रतिपक्षी वदति मूलबिन्दुः अस्ति यत् कथं स्नेहः दृश्यते जले इत्येव अत्र प्रश्नः अस्ति. इन्द्रियैः कथं ग्राह्यते स्नेहः, तस्य उत्तरं न दत्तं भवता इति सः वदति. चक्षुषा वा त्वचा न गृह्यते इति.
इदानीमपि अङ्गीकारः नास्ति. इदानीमपि अङ्गीकारः नास्ति प्रतिपक्षिणः.
सिद्धान्ती वदति स्नेहः इति न्यूनातिन्यूनं त्वचा गृह्यते इति अङ्गीकर्तुं शक्यते. यतोहि यदा जलं स्पृशामः तदा हस्तस्य जलेन लेपनं भवति. पुनः यदा चूर्णजलयोः मिश्रणं कुर्मः तदा हस्ते अपि लेपनं भवति. अतः त्वगिन्द्रियेण अनुभूयते इति वक्तुं शक्यते. तर्हि अत्र सिद्धान्ती अस्तु चक्षुषा न गृह्यते चेत् न्यूनातिन्यूनं त्वचा गृह्यते इति अङ्गीकरोतु. यदा वयं जलं स्पृशामः तदा जलस्य लेपनं भवति हस्ते. तथैव भवति चूर्णजलयोः मिश्रणसमये अपि. अतः लेपनम् इत्युक्ते तत्र स्नेहः एव निर्दिष्टः भवति. अतः तत् त्वचा यः अनुभूतः सः स्नेहः एव इति सः वदति.
हा सत्यम्. इत्यस्मिन् विचारे मम अपि अङ्गीकारः अस्ति. चक्षुषा मम अपि प्रतिपक्षीवत् मतं. किन्तु चक्षु निमील्य यत्र कुत्रापि स्नेहः यत् इत्युक्ते स्टिकिनेस् तथा स्लिपरिनेस् इति किमपि अस्ति खलु, चक्षुषा न्यूनातिन्यूनम् अवश्यम् अनुभूयते किल इति, अथवा पिण्डीभावः क्षम्यतां त्वचा पिण्डीभावः यत्र अस्ति तत्रापि चक्षु निमील्य यदि वयं किमपि डौ वा इति किमपि स्पृशामश्चेत् यत्र लोष्टं भवति तत्रापि अनुभवामः किञ्चित् इति.
भगिनी परन्तु जले यः अनुभूयते अस्माभिः
सः स्पर्शः
आर्द्रम् एव खलु, न तु स्टिक्किनेस् इति भावः खलु, तत्र किञ्चित् भिन्नरूपेण.
जले वयं किम् अनुभवामः, शीतस्पर्शम् अनुभवामः. किञ्चित् उष्णजलं स्वीकरोतु, उष्णज्वलं स्पृशामश्चेत् तत्र किम् औष्ण्यं, शीतस्पर्शः इति जलस्य केरेक्टरिस्टिक् गुणः अस्ति, तद् न अनुभवामः. किन्तु जलम् अस्ति इति जानीमः कथञ्चित् किल, तद् किं स्नेहः स्यात् वा इति एकं चिन्तनम् आसीत्. अस्तु पश्येम अग्रे गत्वा.
अत्र लेपनम् इति अस्ति. लेपनम् इत्युक्ते सामान्यतया क्वालिटि स्टिकिनेस्, परन्तु जलविषये तु केवलम् आर्द्रं मोयिस्ट् इति खलु, वेट्नेस् इत्येव अनुभवामः.
तर्हि अन्ततो गत्वा स्नेहः इत्युक्ते किम् एतेषां मतानुगुणं, सिद्धान्तिनां मतानुगुणम् इति द्रष्टव्यं भवति इति भवत्याः प्रश्नः एव अग्रिमप्रश्नः अपि पठेम. सरला भगिनी अग्रे.
प्रतिपक्षी अस्तु, जलस्य स्पर्शेन हस्ते लिप्यते, किन्तु लेपनं च स्नेहश्च द्वौ समानं न स्तः किल. स्नेहः तादृशगुणः यः पिण्डीभावं प्रति कारणम्. स्पर्शेन केवलं ज्ञायते यत् हस्तः जलेन लिप्यते, किन्तु स्नेहः तस्मात् भिन्न. लेपनं कथं स्नेहस्य प्रमाणं इदानीं प्रतिपक्षी सिद्धान्तस्य विरोधं करोति. अस्तु, जलस्य स्पर्शेन हस्ते लिप्यते. यदि जलस्य स्पर्शं भवति हस्ते, हस्तात् लिप्यते. किन्तु लेपनमं स्नेह द्वौ भिन्नौ अस्ति, द्वौ भिन्नौ स्तः. किन्तु तस्य लेपनं वा स्नेह, तस्य द्वे कः समानता अस्ति, तत्र का समानता अस्ति? स्नेह तादृशगुण यः पिण्डीभावं प्रति कारणं. स्नेह तु जले तत् गुण अस्ति यः पिण्डीभावं करोति. यदि चूर्णजलस्य मिश्रं भवति तत् स्पर्शेन केवलं ज्ञायते यथा तत् जलेन लिप्यते. त्वचा केवलं वयं स्पर्शं जलस्य स्पर्शम् अनुभवामः, हस्तं लिप्यते. किन्तु हस्तः स्नेहः न ज्ञायते. किन्तु स्नेहः तस्मात् भिन्न, लेपनं कथं स्नेहस्य प्रमाणम्? प्रतिपक्षी न अङ्गीकुर्वन्ति स्नेहः वा लेपनम् एकसमानम् अस्ति. लेपनं स्नेहस्य प्रमाणं न भवितुं शक्नोति.
हा हा, तर्हि स्पर्शेन केवलं जलस्य लेपनं भवति इति अवगन्तुं शक्नुमः. किन्तु स्नेहः एव लेपनं वा इति, लेपनं कथं स्नेहस्य प्रमाणं स्यात् इति, तदर्थं सिद्धान्ती किं वदति?
सिद्धान्ती इदानीं वदन्ति, स्नेहस्य विद्यमानत्वात् किल लेपनं भवति. अत्र इदानीं शैली भिन्ना, ते वदन्ति स्नेहस्य विद्यमानत्वात् स्नेहः वर्तते इति, तत् अतः लेपनं भवति.
सत्यम् इत्युक्ते, हा, अत्र मम चिन्तनमासीत् यत् अस्तु, पिण्डीभावस्थले चक्षुषा पिण्डीभावं दृष्ट्वा स्नेहः अस्ति इति वदति, अत्रापि लेपनम् अनुभूय त्वचा स्नेहः अस्ति इति सिद्धान्ती प्रायः वदन् अस्ति इति भाति. स्नेहस्य विद्यमानत्वात् किल लेपनं भवेत् इति सः वदति. अस्तु, अन्ततो गत्वा सिद्धान्तिभिः प्रत्यक्षेण तत्र चक्षुषा अथवा चक्षुषा अथवा त्वचा ग्रहीतव्यं इति साधनीयं.
भगिनि, जलस्य स्पर्शनेन हस्ते लिप्यते वा हस्तः लिप्यते वा?
हस्ते जलं लिप्यते.
हस्ते जलं लिप्यते इति सम्यक्, किन्तु जलस्य स्पर्शनेन हस्तः लिप्यते एव भवेत् किल?
न, लिप्यते इति कर्मणि प्रयोगः स्यात् महोदय. हस्तः
अतः एव,
हस्तः लिप्यते अथवा जलं लिप्यते. हस्तः लिप्यते इत्युक्ते
जलेन
लिप्यते, स्टिक्स् टु द वाटर् अथवा जलं.
तदेव अस्ति तत्र, जलस्य स्पर्शनेन हस्तः लिप्यते इत्येव भवेत् किल?
हा, हस्तः जलेन लिप्यते इति उक्तं. स्पर्शेन केवलं हस्तः जलेन लिप्यते इति उक्तमस्ति.
अस्तु भगिनि,
अस्तु अग्रे गच्छेम. सावित्री भगिनि.
आं भगिनि, प्रतिपक्षी, यत्किमपि भवतु नाम, किन्तु अधुना स्नेहस्य विद्यमानत्वात् लेपनम् इति तर्कः प्रवर्तमानः न तु प्रत्यक्षम्. प्रत्यक्षग्रहणमिति न प्रदर्शितम्, अतः स्नेहनामकगुणस्य प्रत्यक्षं कुत्र भवति? न चक्षुषा, न वा त्वचा. पुनः प्रतिपक्षी तस्य मतं प्रतिपादयति. इदानीं तु भवान् यदुक्तं तत् लेपनम् इति, स्नेहस्य विद्यमानत्वात् लेपनम् इति वदति भवान्, परन्तु तत्र स्नेहस्य प्रत्यक्षं कुत्र प्रदर्शितम् अस्ति इति सः पृच्छति. अतः स्नेहनामकगुणस्य प्रत्यक्षं कुत्र भवति? न वा न चक्षुषा वा न त्वचा वा, न चक्षुषा न वा त्वचा. यत्र चक्षुषा लेपनं द्रष्टुं शक्नुमः अथवा पिण्डिभावं द्रष्टुं शक्नुमः अथवा त्वचा द्रवम् अनुभवामः अथवा लेपनम् अनुभवामः कुत्र स्नेहस्य प्रत्यक्षं भवति इति पुनः पृच्छति.
हा पुनः इत्येव प्रश्नः. अस्तु अग्रे भगिनि.
सिद्धान्ति वदति प्रतिनियतग्राह्यगुणाः ते एव ये एकेन एव इन्द्रियेण गृह्यन्ते. यथा रूपं चक्षुषा एव गृह्यते अन्येन इन्द्रियेण न गृह्यते. एवं च रूपं रसः गन्धः स्पर्शः शब्दः तदा बुद्धिः सुखं दुःखम् इच्छा द्वेषः प्रयत्नः इति एते सर्वे प्रतिनियतग्राह्यगुणाः. ततः अग्रे सङ्ख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च. एते तु द्वीन्द्रियग्राह्याः. अत्र प्रतिपक्षी यः प्रश्नं पृच्छति तस्य उत्तरं न दत्तमस्ति.
सत्यम्. अघर्षणेव केवलं पुनः अझर्ट् करोति किल.
पुनः प्रतिनियतग्राह्यगुणाः ते एव भवति ते एव भवन्ति ये एकेन एव इन्द्रियेण गृह्यन्ते इति पुनः वदति. यथा रूपं चक्षुषा गृह्यते अथवा रसं रसनेन्द्रियेण गृह्यते इति सर्वं पुनः वदति. इच्छा द्वेषसुखप्रयत्न इति सर्वे मनसा गृह्यते इति. ततः अग्रे सङ्ख्यादि रपरत्वान्तो द्रवत्वं स्नेह एव च. ते सर्वे द्वीन्द्रियग्राह्याः चक्षुषा अपि च त्वचा इति सः पुनः वदति.
हा इति पुनः अवर्ट् करोति किन्तु तत्र अग्रे गत्वा किं भवति इति पश्येम. अस्तु अग्रे वर्धिनी भगिनि.
प्रतिपक्षी किन्तु स्नेहः साक्षात् न दृश्यते तस्य कार्यं पिण्डीभावं दृष्ट्वा अनुमीयते. चूर्णस्य पिण्डीभावः अस्माभिः दृश्यते. तादृशं पिण्डीभावं प्रति अनुकूलः यः गुणः अस्ति स च गुणः किन्तु न दृश्यते इति अस्माकम् अनुभवः. प्रतिपक्षी वदति स्नेहः न दृश्यते साक्षात् तस्य कार्यं पिण्डीभावः दृष्ट्वा अनुमानेन चिन्तनं भवति. चूर्णस्य पिण्डीभावः अस्माभिः दृश्यते. पिण्डीभावं प्रति अनुकूलः यः गुणः अस्ति स च गुणः किन्तु न दृश्यते. अस्मिन् स्नेहः न दृश्यते इति प्रतिपक्षी वदति.
हा प्रतिपक्षी पुनः स्वस्य मतं पुनः वदति. पुनः अनुमानेन एव जातः स्नेहः इति गुणः पिण्डीभावरूपकार्यं दृष्ट्वा न दृश्यते अथवा न त्वचा गृह्यते. अस्तु अग्रे अपि पठतु भगिनि. चूर्णस्य
पिण्डीभावः अस्माभिः दृश्यते. सा काचित् क्रिया किन्तु चूर्णस्य पिण्डीभावं प्रति कारणीभूतः गुणः अस्माभिः वस्तुतः न दृश्यते. पुनः वदति तदेव वदति चूर्णस्य पिण्डीभावः अस्माभिः दृश्यते. पिण्डीभावः क्रिया काचित् क्रिया चूर्णस्य पिण्डीभावं प्रति कारणीभूतः गुणः अस्माभिः वस्तुतः न दृश्यते. स्नेहः न दृश्यते कारणीभूतः इति गुणः इति स्नेहः अस्माभिः प्रत्यक्षं न दृश्यते
इति वदति पूर्वपक्षी पुनः. अस्तु अग्रे शुकवन महोदय.
श्रोता अधुना मम नितरां भ्रमः व्युत्पन्नः. एतावता मया चिन्तितम् आसीत् यत् पिण्डीभावः विलक्षणसंयोगः गुणीभूतः किन्तु इदानीं श्रूयते यत् पिण्डीभावः क्रिया इति वा इति सिद्धान्ती अपि च पूर्वपक्षिणयोः मध्ये संवादः जायते. तत् श्रुत्वा अन्य किमपि श्रोता अस्ति सः वदति वयं पठितवन्तः पिण्डीभावः विलक्षणसंयोगः गुणीभूतः इति. किन्तु अत्र पूर्वपक्षिणा किम् उक्तम् इत्युक्ते सा काचित् क्रिया इति पिण्डीभावः काचित् क्रिया इति वदति. तत् कथम् इति श्रोता पृच्छति. प्रतिपक्षी वदति सत्यं, वस्तुतः पिण्डीभावः इति क्रिया एव. पृथक् पृथक् विद्यमानचूर्णस्य कणाः एकत्रीभवन्ति किल, इत्युक्ते एकः कणः अन्येन कणेन सह दृढं संयुज्य तिष्ठति, स एव पिण्डीभावः. चूर्णस्य कणाः एकत्रीभूय संयुज्य तिष्ठति इति एका क्रिया इति प्रतिपक्षी वदति. पिण्डीभावः इति विलक्षणसंयोगः इति यद्यपि वयं वदामश्चेत् तत् तस्य स्वरूपः क्रिया एव. किमर्थम् इत्युक्ते कणाः पृथक् पृथक् तिष्ठन् आसीत्, किन्तु तयोः इदानीम् एकत्री अभवत् इति, एकत्रीभूय तत् संयुज्य तिष्ठति इति कृत्वा तत् पिण्डीभावः इति क्रिया एव इति पूर्वपक्षी वदति.
तर्हि गुणः इति एकवारम् उक्तवन्तः, पिण्डीभावः इति गुणः विलक्षणसंयोगः. अधुना
क्रिया इति वदति,
कार्यं जातं, कार्यम् इति एका क्रिया जाता. का क्रिया इत्युक्ते पिण्डीभावः. अस्तु, तर्हि अधुना किञ्चित् व्याकरणदृष्ट्या समर्थयन्ति पिण्डीभावः इति क्रिया इति कथम् इति पश्येम. राजेन्द्रमहोदय अग्रे.
प्रतिपक्षी, ताः क्रियाः तथा भगिनि?
न महोदय, एतावता मया चिन्तितं यत् पश्यति वा.
ओ अहं चिन्तितवान् महोदय, पठितवान्. एतावता मया चिन्तितं यत् उत्क्षेपण अपेक्ष आक्षेपन कुञ्चनप्रसारणगमनानि पञ्चकर्माणि इति तादृश एव क्रियाः भवन्ति. इदानीं श्रोता तस्य मनसि किञ्चित् भ्रमः जातः, यथा पूर्वं तु पिण्डीभावः गुणः आसीत्, इदानीं तु क्रिया भवति. तत् कारणतः सः वदति, मया तु श्रुतं तत् पञ्चकर्माणि तत्र सन्ति, पञ्चविधक्रियाः सन्ति, तत् तेषां नाम उत्क्षेपण अपेक्षन् कुञ्चन प्रसारणगमनानि तत् क्रियाः सन्ति. परन्तु इदानीं तु भवान् वदति पिण्डीभावः अपि एका क्रिया, तत् किञ्चित् भिन्न अस्ति यथा पूर्वं मया श्रुतं.
तत् कथम् इति पुनः श्रोता पृच्छति. अस्तु अग्रे.
प्रतिपक्षी, ताः क्रियाः तु प्रक्रियारीत्या उक्ताः, केवलम् उदाहरणानि. अत्र पूर्वं कणाः पृथक् पृथक् आसन्, इदानीम् एकत्रीभूय संयुज्य तिष्ठन्ति. पिण्डीभावः एषः क्रिया न वा इति खलु सन्देहः. प्रतिपक्षी वदति यत् पूर्वं पञ्चकर्माणि वक्तव्यानि, तत्तु ते तु प्रक्रियारीत्या एव उक्ताः क्रियाः, केवलम् उदाहरणानि. अत्र तु पूर्वं कणा चूर्णे यदा भिन्नभिन्नकणाः आसन्, तत् पृथक् पृथक् आसन्, इदानीं जलसंयोगेन इदानीम् एकत्रीभूय संयुज्य तिष्ठन्ति, पिण्डीभावं स्वीकुर्वन्ति. इदानीं पिण्डीभावः एषः क्रिया न वा इति खलु सन्देहः. पिण्डीभावः एषः क्रिया न वा, प्रतिपक्षी अपि वदति तत् पिण्डीभावः क्रिया वा न वा इति तु सन्देहः अस्ति खलु. परन्तु सः न अङ्गीकरोति स्नेहः कोऽपि प्रत्यक्षगुणः अस्ति. तत्
सत्यं तस्य विषये तु नास्ति, केवलं वदति यत् पिण्डीभावः क्रिया, यतोहि तिष्ठति इति आगच्छति खलु महोदय, एकत्रीभूय तिष्ठति इति क्रिया अस्ति न वा. तादृशी क्रिया अस्ति पिण्डीभावः इति पुनः प्रतिपक्षी वदन् अस्ति. अस्तु,
तस्मिन् मनसि अपि सन्देहः अस्ति एव?
न न, तस्य मनसि सन्देहः नास्ति. पिण्डीभावः एषा क्रिया न वा इति खलु सन्देहः इति पृच्छति सः. अग्रे गत्वा किमर्थं क्रिया इति वदति व्याकरणदृष्ट्या पश्येम. अग्रे जयन्ती भगिनी.
श्रोता, सत्यं पिण्डीभावः इति कश्चन भावः खलु. पिण्डीभावः इति कथनेन भावः इति अस्ति न तु क्रिया. भावः क्रिया अस्ति इति श्रोता पृच्छति यत् पिण्डीभावः इति एव उच्यते, तत्र भावः नाम क्रिया क्रिया कथं, भावः इत्युक्ते कथं क्रिया भवति इति स तस्य प्रश्नः. तर्हि प्रतिपक्षी उत्तरयति यत् पिण्डीभावः इत्यनेन पिण्डीभवनम् इत्यर्थः. पिण्डीभवनम् इत्युक्ते पूर्वं पिण्डं नासीत्, इदानीं पिण्डं सञ्जातं. लड्डुकम् इति स्वीकुर्मश्चेत् पूर्वं तस्य कणाः पृथक् पृथक् आसन्, इदानीं लड्डुकस्य कणाः सर्वे मिलित्वा तिष्ठन्ति. स एव पिण्डीभावः. एवं कृत्वा पिण्डीभवनम् एका क्रिया. अतः स प्रतिपादयति यत् अत्र भावः इति कथनेन भवनम् इत्यर्थः. यथा लड्डुकनिर्माणसमये पृथक् पृथक् कणाः भवन्ति पूर्वं, तदनन्तरं एकत्रीकरणेन लड्डुकम् इति भवति. अतः तत्र अत्र पिण्डीभवनम् इति काचित् क्रिया अस्ति येन यया लड्डुकं निर्मीयते. तत्तु भवनम् इत्युक्ते क्रिया एव, क्रियायाः निदर्शनमेव भवति इति सः वदति.
वस्तुतः भवनम् इत्यस्य अपेक्षया पिण्डी इति दीर्घ ईकारः अस्ति खलु?
आम् आम् आम्.
तदेव सूचयति, क्रियां सूचयति, यतोहि कश्चन प्रत्ययः अस्ति छुई इति. पूर्वं न आसीत्, अधुना अभवत्. अशुक्लं शुक्लं कृत्वा शुक्लीकरणम् इति काचित् क्रिया. तद्वदेव पिण्डीभवनम् इति काचित् क्रिया इति प्रतिपक्षी वदति.
यस्य परिवर्तनं भवति
यद् न आसीत् तद् अभवत् इत्यस्य अर्थे तादृशप्रत्ययः अस्ति. अस्तु, अग्रे अपि किञ्चित् पठितवन्तः खलु. सरला भगिनी अग्रे अग्रिम.
श्रोता, अहो अत्र च्वि प्रत्ययः अस्ति वा? श्रोता पृच्छति एतत् च्वि प्रत्ययः व्याकरणरीत्या अस्ति वा? प्रतिपक्षी उत्तरयति, सत्यं चिवि प्रत्ययः यत्र भवति तत्र सर्वत्र काचित् क्रिया अनेन व्यक्तीकृता. का क्रिया इति चेत् पूर्व तथा नासीत्, इदानीं तथा सम्पच्यते इति. सा काचित् क्रिया भवति एव. तां पिण्डीभावक्रियां च द्रष्टुं शक्नुमः, किन्तु तस्य कारणीभूतगुण यः जले अस्ति स तु न दृश्यते. पिण्डीभवनं चूर्णस्य न तु जलस्य. पिण्डीभवनस्य कारणीभूतगुण जले. चूर्णजलयोः मिश्रणं यदा कुर्मः इयं क्रिया पिण्डीभावस्य चूर्णस्य पिण्डीभवनं क्रिया ज्ञातुं शक्नुमः, द्रष्टुं शक्नुमः, किन्तु तस्य अनुकूल यः गुणः भवति जले, तं गुणं वयं कथं द्रष्टुं शक्नुमः इति प्रश्नः अस्ति एव. न्यायशास्त्रे स्नेहः प्रत्यक्षम् इति वदन्ति, किन्तु लोके तादृश अनुभवः अस्माकं नास्ति. इदानीं प्रतिपक्षी श्रोत्रम् उत्तरयति, सत्यं या क्रिया एतत् क्रिया चि प्रत्ययः एव अस्ति, यत् तस्य अर्थम् अस्ति यत् सर्वत्र काचित् क्रिया अनेन व्यक्तीकृता. चि एतत् क्रिया अनेन क्रिया यदि वयं पूर्वं वयं पठितवन्तः आक्षेप उत्तक्ष्म उत्तक्षेप पञ्चक्रिया वयं उत्तेक्षपण आक्षेपण कुञ्चन प्रसारण गमनन इति क्रिया तस्मात् पृथकं करोति तीचि प्रत्यय का क्रिया इति चेत् पूर्वं तथा नासीत् इदानीं तथा सम्पद्यते. यदि पूर्वं नास्ति इदानीं सम्पद्यते तत् भवति चिप् प्रत्ययक्रिया. सा काचित् क्रिया भवति एव तां पिण्डीभावक्रियां द्रष्टुं शक्नु. यदा पिण्डीभावं वयं कथं जानीमः यत् कर्णा पृथक् पृथक् आसीत् तत् एकत्रं भवति तस्य पिण्डीभावं भवति तस्य. किन्तु तस्य कारणीभूतगुणः तत् जले अस्ति. तस्य कारणम् अस्ति जले विद्यमान स्नेह गुणः अस्ति. तत् गुणं जले वयं न पश्यामः. पिण्डीभवनं चूर्णस्य न तु जलस्य. पिण्डीभवनं यदि कार्यं वयं पश्यामः तत् चूर्णस्य पिण्डीभवनं पश्यामः न तु जलस्य. पिण्डीभवनस्य कारणीभूतगुण जले. यदि पिण्डीभवनं भवति तस्य कारणम् अस्ति जले विद्यमान गुण. तत् वयं जानीमः स्नेहः. चूर्णजलयोः मिश्रणं यदा कुर्मः इयं क्रिया पिण्डीभावस्य. यदा चूर्णजलयोः मिश्रणं भवति तदा हि पिण्डीभावस्य उत्पन्नं भवति. ता क्रिया भवति. चूर्णस्य पिण्डीभवनक्रिया ज्ञातुं शक्नुमः द्रष्टुं शक्नुमः. चूर्णस्य पिण्डीभावं क्रिया वयं प्रत्यक्षं दृष्टामः अपि स्पर्शामः अपि तस्य प्रत्यक्षं भवति. किन्तु तस्य अनुकूल या गुणं भवति चले तं गुणं वयं कथं द्रष्टुं शक्नुमः. किन्तु पिण्डीभावस्य कारणं या गुणं जले विद्यमान अस्ति तत् गुणं वयं न द्रष्टुं शक्नुमः. तस्य प्रत्यक्षं वयं न जानीमः. प्रश्नः वदति न्यायशास्त्रे स्नेह प्रत्यक्षं वदन्ति चक्षुषा त्वचा ग्राह्यं द्विगुण द्वे इन्द्रे ग्राह्यम् अस्ति स्नेह जले विद्यमानस्नेह. किन्तु लोके तादृश अनुभवं न दृश्यते.
समीचीनम् इति मूलवार्ता प्रतिपक्षिणः. प्रत्यक्षस्नेहः प्रत्यक्षं नास्ति इति वस्तुतः पिण्डीभावः गुणः भवतु वा अथवा क्रिया भवतु वा तत्सर्वं चूर्णस्य खलु न तु जलस्य. हा पिण्डीभावः इति गुणः दृश्यते कुत्र चूर्णे अथ हा अथवा क्रिया एव भवतु पृथक् पृथक् कणाः एकत्रिभूय तिष्ठन्ति इति अपि दृश्यते कुत्र चूर्णे न तु जले. तर्हि पुनः प्रश्नः आयाति यत् स्नेहः प्रत्यक्षमिति कथं वदन्ति इति. अस्तु अत्र पर्यन्तं प्राप्तवन्तः. कोऽपि प्रश्नः वा? नो चेत् विरमामः. शुभरात्रि अपि च शुभदिनं.
शुभरात्रिः.